पश्यामि देवान् स्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् ब्रह्माणमीशं कमलासनस्थं ऋषींश्च सर्वान् उरगांश्च दिव्यान्
अनेकबाहू दरवक्त्रनेत्रं पश्यामि त्वां सर्वतो पश्यामि विश्वेश्वरवीश्वरूपा
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तं पश्यामि त्वां दुर्निरीक्षं समन्तात् दीप्तानलारक द्युतिमप्रमेयम् त्वमक्षरं परमं
वेदितव्यं त्वमस्य विश्वस्य परं निधानं त्वमङ्गलः
शाश्वतनर्मगो अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रं पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्
दिशश्च सर्वा दृष्ट्वाद्भुतं रूपम् उग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्
रूपं महत्ते बहुवक्त्रनेत्रम् महाबाहो बहुबाहुर्वागं बहूदरं बहुदंश्चाकरालं दृष्ट्वा लोका प्रव्यथितास्तथाहम्
नवस्पृशं दीप्त मने
शाकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास
यथा नदीनां बहवो वेगा समुद्रमेव विमुखा द्रवन्ति तथा तवामि नरलोकवीरा
विशन्ति वक्त्रान् विज्वलन्ति आख्यानि मे को भवानुग्ररूप नमोऽस्तुते देववरा प्रसीद विद्यामिच्छामि भवन्तवाद्यं नहि
प्रसीद देवेश जगन्निवास।